ಯೇನಾಕ್ಷರಸಮಾಮ್ನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃಷ್ಣಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ಯೇನ ಧೌತಾಗಿರ ಪುಂಸಾಂ ವಿಮಲೈ ಶಬ್ದವಾರಿಭಿಃ ತಮಶ್ಚ ಅಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ. ಗುರುರೇವ ಗತಿ ಗುರುಮೇವ ಭಜೆ ಗುರುನೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ ನ ಗುರೋಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋರ್ಮತಿರಸ್ತಿ ಗುರೌ ಮಂ ವಾಹಿ ಗುರೋ. ಓಂ ನಮಃ ಪಾಣಿನಿ ಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಪ್ರವರ್ತಕೇಭ್ಯ ನಮೋ ಮುನಿಭ್ಯ ನಮೋ ಮಹದ್ಭ್ಯ ನಮೋ ಗುರುಭ್ಯ. ಇದಾನೀಂ ವ್ಯಂಜನ ಸಂಧಿ ಪ್ರಕರಣೆ ವಯಂ ಸ್ಮಃ. ವ್ಯಂಜನ ಸಂಧಿ ಪ್ರಕರಣೆ ತತ್ರ ಡಸಿ ಧುಟ್ ಇತಿ ಸೂತ್ರಂ ವಿದ್ಯತೆ. ವ್ಯಂಜನ ಸಂಧಿ ಪ್ರಕರಣೆ ಢಸಿ ದುಟ್ ಇತಿ ಸೂತ್ರ ವಿದ್ಯತೆ. ತತ್ರ ಮೂಲೆ ಏವಂ ಅಸ್ತಿ ಡಾಟ್ ಪರಸ್ಯ ಸಸ್ಯ ದುಡ್ ವಾ ಇತಿ ಸೂತ್ರಾರ್ಥ ವರ್ಣಿತ. ಇದಾನೀಂ ಅಸ್ಯ ಸೂತ್ರಾರ್ಥಸ್ಯ ಏವಂ ವಿವರಣಂ ಕಥಂ ಆಗತಂ ಇತಿ ಪಶ್ಯಾಮಃ. ಇದಾನೀಂ ಪ್ರಥಮಂ ಅತ್ರ ಪದತ್ರಯಂ ವಿದ್ಯತೆ ಡಹ ಸಿ ದುಟ್ ಇತಿ. ಅತ್ರ ವಿಧಿಸೂತ್ರಂ ವಿದ್ಯತೆ ಏತತ್. ಅತ್ರ ಡಹ ಇತ್ಯತ್ರ ಪಂಚಮೀ ವಿದ್ಯತೆ. ಡಹ ಇತ್ಯಸ್ಯ ಇತ್ಯತ್ರ ಡಕಾರಾತ್ ಪರಸ್ಯ ಪಂಚಮೀ ಇತ್ಯುಕ್ತೆ ತಸ್ಮಾದಿತ್ಯುತ್ತರಸ್ಯ ಇತಿ ಪರಿಭಾಷಾ ಆಗಚ್ಚತಿ. ತದಾ ಕಿಂ ಭವತಿ ಡಕಾರಾತ್ ಪರಸ್ಯ ಇತಿ ಇತಿ ಆಗಚ್ಚತಿ. ಇದಾನೀಂ ಸಿ ಇತಿ ಸಪ್ತಮೀ ವಿಭಕ್ತೌ ಅಸ್ತಿ. ಇದಾನೀಂ ತಸ್ಮಿನ್ ಇತಿ ನಿರ್ದಿಷ್ಟೆ ಪೂರ್ವಸ್ಯ ಇತಿ ಪೂರ್ವಸ್ಯ ಕಾರ್ಯಂ ಅತ್ರ ವಿದ್ಯತೆ. ಡಕಾರಾತ್ ಪರಸ್ಯ ಇತ್ಯುಕ್ತೆ ಪರಸ್ಯ ಕಾರ್ಯಂ ಭವತಿ. ಇದಾನೀಂ ಅಸ್ಮಾಭಿಃ ಕಿಂ ಕರ್ತವ್ಯಂ ಇತಿ ಪ್ರಶ್ನಃ. ಪರ ಅತ್ರ ಏಕಸ್ಮಿನ್ ಸೂತ್ರೆ ಯದಾ ಪಂಚಮೀ ನಿರ್ದೇಶಃ ಅಪಿ ಭವತಿ ಸಪ್ತಮೀ ನಿರ್ದೇಶಃ ಅಪಿ ಭವತಿ ತದಾ ಏತಾದೃಶ ಸಂಶಯಃ ಭವತಿ. ಇದಾನೀಂ ಪಂಚಮೀ ನಿರ್ದೇಶಃ ಅಸ್ತಿ ತಸ್ಮಾದಿತ್ಯುತ್ತರಸ್ಯ ಇತಿ ಸೂತ್ರ ಅನುಸಾರೇಣ ಡಕಾರಾತ್ ಪರಸ್ಯ ಇತ್ಯುಕ್ತೆ ಡಕಾರಾತ್ ಅವ್ಯವಹಿತ ಪರಸ್ಯ ದುಡ್ ಭವತಿ. ಇದಾನೀಂ ಸಿ ಇತಿ ಸಪ್ತಮ್ಯಂತಂ ಪದಂ ಅಸ್ತಿ ತಸ್ಮಿನ್ ಇತಿ ನಿರ್ದಿಷ್ಟೆ ಪೂರ್ವಸ್ಯ ಇತಿ ಪರಿಭಾಷೆಯ. ಅತ್ರ ಸಕಾರಸ್ಯ ಅವ್ಯವಹಿತ ಪೂರ್ವಸ್ಯ ಅವಯವಸ್ಯ ದುಡ್ ಭವತಿ ಇತಿ ಭವತಿ. ಇದಾನೀಂ ಪ್ರಶ್ನಃ ಆಗಚ್ಚತಿ ತಸ್ಮಾದಿತ್ಯುತ್ತರಸ್ಯ ಇತಿ ತಸ್ಮಾದಿತ್ಯುತ್ತರಸ್ಯ ತಸ್ಮಿನ್ ಇತಿ ನಿರ್ದಿಷ್ಟೆ ಪೂರ್ವಸ್ಯ ಇತಿ ಉಭಯೋಃ ಪರಿಭಾಷೆಯೋಃ ಪ್ರಾಪ್ತಯೋಃ ಕಾ ಗತಿ ಅಸ್ಮಾಭಿಃ ಕಿಂ ಕರ್ತವ್ಯಂ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಅಪರಾ ಪರಿಭಾಷಾ ವಿದ್ಯತೆ. ಉಭಯ ನಿರ್ದೇಶೆ ಪಂಚಮೀ ನಿರ್ದೇಶೋ ಬಲೀಯಾನ್ ಇತಿ ಪರಿಭಾಷಾ ವಿದ್ಯತೆ. ಇದಾನೀಂ ಉಭಯ ನಿರ್ದೇಶೆ ಇದಾನೀಂ ಉಭಯ ನಿರ್ದೇಶಃ ನಾಮ ಪಂಚಮೀ ನಿರ್ದೇಶಃ ಸಪ್ತಮೀ ನಿರ್ದೇಶಃ ಇತಿ ಯದಿ ಉಭಯ ನಿರ್ದೇಶಃ ಭವತಿ ತದಾ ಪಂಚಮೀ ನಿರ್ದೇಶಃ ಬಲಿಯಾನ್. ಏವಂ ಪಂಚಮೀ ನಿರ್ದೇಶಃ ಬಲಿಯಾನ್ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಡಹ ಇತ್ಯತ್ರ ಡಕಾರಾತ್ ಪರಸ್ಯ ಇತ್ಯೇವ ಸ್ವೀಕರ್ತವ್ಯಂ ಅವ್ಯವಹಿತ ಪರಸ್ಯೈವ ಕಾರ್ಯಂ ಕರ್ತವ್ಯಂ ಇತಿ ಆಗತಂ. ಯದಿ ಷಷ್ಠಿ ಇದಾನೀಂ ಏವಂ ಏವಂ ಆಗತೇ ಸತಿ ತದಾ ಸಪ್ತಮ್ಯಾಃ ಕಾ ಗತಿಃ ಇತ್ಯುಕ್ತೆ ಸಪ್ತಮೀ ವಿಭಕ್ತಿಃ ಕದಾಚಿತ್ షష్ట్యా విపరిణమ్యతే. షష్ట్యా విపరిణమ్యతే ఇత్యుక్తే ది సప్తమి విభక్తి గెట్స్ కన్వర్టెడ్ ఇన్ టు షష్ఠీ విభక్తి ఇన్ సచ్ కేసెస్ వేర్ ఇన్ సూత్ర దేర్ ఇస్ పంచమీ నిర్దేశ అండ్ సప్తమీ నిర్దేశ. దెన్ ఇఫ్ దేర్ ఇస్ అ క్లాష్ యాజ్ టు వెదర్ వీ హ్యావ్ టు డూ అవ్యవహిత పర ఆర్ అవ్యవహిత పూర్వ ఆఫ్ ఎ లెటర్ దెన్ వాట్ వీ డూ ఇస్ వీ టేక్ ది పంచమీ ఉభయ నిర్దేశే పంచమీ నిర్దేశో బలీయాన్ ఇది పరిభాషయ. పంచమీ నిర్దేశ హాజ్ గాట్ అన్ అపర్ హ్యాండ్ ఇది వయం అస్మాభి స్వీకృత్య. దెన్ వాట్ హ్యాపన్స్ టు ద సప్తమీ విభక్తి ద వర్డ్ విచ్ ఇస్ ఇన్ సప్తమీ విభక్తి సి ఇది సప్తమ్యా షష్ఠి విపరిణామ భవతి ఇత్యుక్తే షష్ఠీ విభక్తి భవతి. షష్ట్యాః ఇదానీం అత్ర అస్మిన్ సూత్రే సి ఇత్యత్ర సకారస్య షష్ఠీ నిర్దేశ యదా భవతి సహ ఇది భవతి సకారస్య అవయవః ఇది ఆగచ్చతి. ఇదానీం అవయవ షష్ఠి ఇదానీం అత్ర స్థాన షష్ఠి న దుడ్ భవతి దుడ్ అవయవత్వేన భవతి సకారస్య అవయవః దుడ్ భవతి ఇది సూత్రార్థః. దుడ్ ఇది ప్రథమా విభక్తిః అస్తి దుడ్ భవతి. ఇదానీం కథం భవతి ఇది అగ్రిమ ఆగమ తత్ర ప్రక్రియా కథం తత్ర ఆదేశః ఆగమః వా లోపః వా యత్కిమపి భవతి వా తత్ కథం ఇది అగ్రిమ సూత్రే పశ్యామః. ఇదానీం ప్రథమం ఏతస్య సూత్రస్యైవ అర్థస్య సమ్యగ్ అవగమనం కుర్మః. అత్ర డాట్ పరస్య సస్య దుడ్వా ఇది సూత్రార్థః. వా ఇత్యుక్తే వికల్పః. వా ఇది హేమపరే వా ఇది సూత్రాత్ వా ఇది అనువర్తతే. అష్టమాధ్యాయస్య తృతీయ పాదస్య సూత్రమేతత్. అత్ర పదత్రయం విద్యతే డహ సి ధుట్ ఇది. డహ ఇది పంచమీ. పంచమీ భక్తిః యదా భవతి తదా కథం అర్థస్వీకారః ఇత్యుక్తే తస్మాదిత్యుత్తరస్య ఇది పరిభాషయ డకారాత్ పరస్య ఇది అవ్యవహిత పరస్య ఇది సూత్రార్థః ఆగచ్చతి. డకారాత్ అవ్యయిత పరస్య కార్యం కర్తవ్యం యత్కిమపి కార్యం అగ్రే ఆగచ్చతి తత్. ఇదానీం సి ఇది సప్తమీ భక్తి అస్తి. సప్తమీ భక్తి యత్ర అస్తి సి తస్మిన్ ఇది నిర్దిష్టే పూర్వస్య ఇది పరిభాషయ పూర్వస్య కార్యం కరణీయం ఇది ఆగచ్చతి. ఉభయ నిర్దేశే కిం కరణీయం ఇత్యుక్తే పంచమీ నిర్దేశ అపి అస్తి సప్తమీ నిర్దేశ అపి అస్తి తదా కిం కరణీయం ఇతి ప్రశ్నే కృతే ప్రశ్నే జాతే ఉభయ నిర్దేశే పంచమీ నిర్దేశ బలీయాన్ ఇతి పరిభాషయ అస్మాభి పంచమీ నిర్దేశ ఏవ బలీయత్వేన స్వీకర్తవ్యం అతః అత్ర పంచమీ నిర్దేశ ఏవ కార్యః ఇతి సిద్ధాంతః ఆగచ్చతి. తదా సప్తమ్యాః కా గతిః సి ఇతి సప్తమీ విభక్తి అస్తి వా తస్య కిమపి ప్రయోజనం అస్తి వా ఇతి ఇత్యుక్తే కదాచిత్ షష్ట్యా విపరిణమ్యతే. యది సూత్రే ప్రయోజనం అస్తి చేత్ షష్ట్యా విపరిణమ్యతే. తదా సూత్రార్థకరణ సమయే షష్ట్యా విపరిణమ్యతే ఇత్యుక్తే ఇత్యుక్తే కిం షష్ట్యా విపరిణమ్యతే ఇత్యుక్తే సూత్రార్థకరణ సమయే సప్తమీ విభక్తిః అత్ర అస్తి తత్ షష్ఠీ విభక్త్యా స్వీకృత్య అర్థ స్వీక్రియతే. ఇదానీం అస్మిన్ సూత్రే షష్ఠీ విభక్తేః షష్ఠీ స్థానే యోగ ఇతి సూత్రార్థః సంభవతి వా తత్ర స్థానే ఇతి యదా కదా ఆగచ్చతి ఇత్యుక్తే యదా ఆదేశః భవతి తదా ఏవ స్థానే ఇతి భవతి. యదా ఆదేశః న భవతి తదా స్థానే ఇతి న భవతి. అత్ర ఆదేశో వా ఆగమః వా ఇతి కథం జ్ఞాయతే ఇతి ప్రశ్నే కృతే దుట్ ఇతి టకారః అస్తి ఇత్యుక్తే టిత్ అస్తి. దుట్ ఇత్యత్ర టిత్ టకారః ఇత్ అస్తి. దుట్ ఇత్యత్ర టకారః ఇత్ అస్తి. టు ఇత్ టిత్ అస్తి అతః టిత్ అస్తి. టిత్ ఇత్యుక్తే ఆగమః ఏవ తత్ కథం జ్ఞాయతే ఇత్యుక్తే అగ్రిమ సూత్రే పశ్యామః. ఇదానీం దుట్ ఇతి ఆగమః భవతి ఇతి స్వీకుర్మః. ప్రథమం అస్య సూత్రస్య అర్థావగమనార్థం దుట్ ఇతి ఆగమః భవతి ఇతి ప్రథమం స్వీకుర్మః. అతః ఇదానీం షష్టి ఇదానీం సప్తమ్యాః షష్ట్యా విపరిణమ్యతే ఇతి సకార షష్ అత్ర సప్తమ్యాః షష్ఠీత్వేన విపరిణామ అనంతరం తత్ర స్థానషష్ఠీ అర్థ స్వీక్రియతే వా ఇతి ప్రశ్నః భవతి. అత్ర ఆదేశస్య ఆదేశస్య అభావాత్ అత్ర స్థానషష్ఠీ న స్వీక్రియతే అవయవషష్ఠీ స్వీక్రియతే. అవయవషష్ఠీ ఇత్యుక్తే కిం? సకారస్యైవ అవయవత్వేన దుడ్ ఆగమః భవతి. సకారస్య అవయవత్వేన అవయవత్వం నామ కీదృశః ఇత్యుక్తే తద్ అగ్రే పశ్యామః. సకారస్య అవయవత్వేన ఆగచ్చతి కిమ కహ ఆగచ్చతి ఇత్యుక్తే దుట్ ఆగచ్చతి. దుట్ ఇత్యత్ర ప్రథమవిభక్తి అస్తి. విధి ఏతదేవ దుట్ విధీయతే. ఏవం అస్య సూత్రస్య అర్థః డకారాత్ ఉత్తరస్య సకారస్య అవయవస్య వికల్పేన వికల్పేన దుట్ ఇతి ఆగమః భవతి ఇతి అస్య సూత్రస్య అర్థః. ఆగమః ఇదానీం ఏకవారం అన్మ్యూట్ కరోమి. కృపయా యది ప్రశ్నాః సంతి చేత్ పృచ్ఛంతు, యది కిమపి వక్తవ్యం చేత్ వదంతు. ఆగమః ఇత్యుక్తే కథం తత్సర్వం అగ్రిమసూత్రే వదామి. ఏతావత్ పర్యంతం అవగతం వా సర్వైః? ఏతత్ సమ్యక్ యతోహి ఏతత్ కాన్సెప్ట్ ఏవ సర్వత్ర అనువర్తతే. ఇదానీ వ్యంజనసంధౌ కోపి సంశయః అస్తి చేత్ కృపయా ఇదానీమేవ పృచ్ఛంతు. ఆగమః ఇత్యుక్తే తత్ కథం ఇతి అగ్రే వదామి. తదపి అగ్రే వదామి. తద అగ్రే అస్తి. షష్ఠీ అవయవః కథం భవతి ఇతి అగ్రే వదామి. అస్తు, తర్హి అగ్రే గచ్చామః. ఇదానీం ఏకం ఉదాహరణం స్వీకుర్మః. శశిసంతః ఇతి ఉదాహరణమస్తి. అత్ర జలాం జశోంతే ఇతి సూత్రేణ షకారస్య డత్వం షడ్సంతః ఇతి అభవత్. జస్వసందేహే ఉదాహరణం తు వయం జానీమః. ఇదానీం ప్రశ్నః ఆగచ్చతి. అస్తు, ధకారః ఇదానీం డసి దుట్ కిం? డసి దుట్ ఇతి సూత్రస్య ప్రవృత్తి అత్ర ప్రవర్తతే వా ఇతి పశ్యామః. షడ్ సంతః ఇత్యత్ర కృపయా పశ్యంతు. షడ్ సంతః ఇత్యత్ర అంతిమ అంతే డకారః విద్యతే. డకారాత్ పరస్య సకారః విద్యతే. ఇదానీం ప్రశ్నః ఏవం. ఇదానీం అత్ర సకారస్య అవయవత్వేన ధకారః భవతి. అవయవత్వేన ధకారః భవతి ఇత్యుక్తే తత్ర అవయవత్వం ద్విధం. ఆద్యవయవః అంతావయవః ఇతి. అవయవత్వేన మీన్స్ ఇట్ కెన్ దిస్ కమ్స్ ది ధకార విచ్ ఇస్ సపోజ్ టు కమ్ గెట్స్ అటాచ్డ్ టు ది సకార యాజ్ అన్ అవయవ యాజ్ అ పార్ట్ ఆఫ్ ఇట్. సో దట్ పార్ట్ కెన్ అటాచ్ the attachment can happen to the left side also, to the left side of sakara, to the right side of sakara. To the left side of sakara is called adyavayava. Adyavayavaha ityukte dhu sa iti bhavati. Antavayavaha ityukte su dha iti bhavati. Idani prashnaha asmabhi avayavat dhakaraha agacchati, dhakaraha avayavatvena agacchati. ఆద్యవయవః వా అంతావయవః అంతావయవో వా ఇతి అస్మిన్ సూత్రే న ఉక్తం. తదానీం అస్మాభిః కిం కర్తవ్యం? ఇదానీం తత్ర ఆద్యంతౌ టకితౌ ఇతి అగ్రిమ సూత్రం విద్యతే. ఇదానీం టిత్ ఆద్యంతౌ టకితౌ ఇతి పరిభాషా సూత్రం. పరిభాషాసూత్రాణం కార్యం తు విధీనాం ఉపకారకం. పరిభాషాసూత్రాణి విద్యుపకారకాని భవంతి, విధి సూత్రాణం ఉపకారం కుర్వంతి. అనియమే నియమకారిణి పరిభాష. ఇదానీం అస్మాకం
ఆద్యవయోవా అంతావయోవా ఇది నియమః నాస్తి అత్ర. అవయవ ఇది అవయవ షష్టి అస్తి, పరంతు ఆద్యవయవః వా అంతావయవః వా ఇది ప్రశ్నః ఆగచ్చతి. ఇదానీం తదా ఉచ్యతే ఆద్యంతో టకితౌ ఇది పరిభాషా సూత్రం సహాయం కరోతి. ఆద్యంతో టకితౌ ఇది సూత్రస్య అర్థః కః? అత్ర పద ఆద్యంతౌ టకితౌ ఇది పదద్వయం విద్యతే. అత్ర ఆద్యంతౌ ఇత్యత్ర ప్రథమావక్తి ఏకవచనం, టకితౌ ఇత్యత్ర ప్రథమావక్తి ద్వివచనం అస్తి, టకితౌ ఇత్యత్రాపి ప్రథమావక్తి ద్వివచనం అస్తి. ఇదానీం ప్రశ్నః ఆగచ్చతి, అస్తు ద్వివచనం అస్తి, అత్ర సమాసః కథం ఇత్యుక్తే ఆదిశ్చ అంతశ్చ ఆద్యంతౌ తశ్చ కృచ టకౌ టకౌ ఇతౌ యహో యయోః తౌ టకితౌ ఇతి భవతి. ఇదానీం ఇత్యుక్తే అత్ర సూత్రార్థః కిం? టిత్ కితౌ యస్య ఉక్తౌ. టిత్ టిత్ నామ కిం? టకారః ఇత్ యస్య సః టిత్. కిత్ నామ కిం? కకారః ఇత్ యస్య సః కిత్. టకారః ఇత్యస్య సః టిత్. కకారః ఇత్యస్య సః కిత్. టిత్ కితౌ యస్య ఉక్తౌ. యస్య ఇత్యుక్తే యస్య ఆగమినః ఉక్తౌ. అత్ర ఆగమః ఇతి ఏకం పదం, ఆగమీ ఇతి ఏకం పదం. ఆగమః ఇత్యుక్తే సాక్షాత్ నిర్దేశః. ఆగమః ఆగమః ఇత్యుక్తే సాక్షాత్ నిర్దేశః. ఆగమీ ఇత్యుక్తే ఆగమః అస్య అస్తి ఇతి ఆగమీ. ఇదానీం తత్ర అలంకారశాస్త్రే ఉచ్యతే అంగిరసః ఇతి. అంగిరసః నామ కిం? సుజాత భగిని, అలంకారశాస్త్రే అత్ర అంగిరసః ఇతి ఉచ్యతే. ఉచ్యతే ఇత్యుక్తే అంగిరస్ ఏవం శృంగారసః అంగిరసః ఇతి కథం ఆగతం? అంగః అస్య సంతి అస్య అస్య అస్తి ఇతి అంగిరస్ అంగీ. అంగః అస్య అస్తి ఇత్యుక్తే అతః అంగీ సంజాతః. ఇదానీం ఏవమేవ అత్ర ఆగమః ఆగమీ ఇతి ఉచ్యతే. ఆగమః యస్య అస్తి ఆగమీ భవతి. ఏవం ధనీ ఇత్యుక్తే గుణి ఇత్యుక్తే గుణః అస్య అస్తి ఇతి గుణి. ఏమేవ ఆగమః అస్య అస్తి ఇతి ఆగమీ. ఇదానీం అత్ర పశ్యంతు తిత్కితౌ ఆగమౌ యస్య యస్య ఆగమినః ఉక్తౌ తత్ టిత్ తదా కిం భవతి? పృథక్ వ్యవస్థా క్రియతే. ఇదానీ టిత్ కిత్ ఉభౌ అపి యత్ర భవతః తదా టిత్ యత్ర భవతి తత్ర ఆద్యవయవః సన్ భవతి. కిత్ యత్ర భవతి అంతావయవః సన్ భవతి ఇతి నియమకృతః ఆద్యంతౌ టకితౌ ఇది సూత్రేణ. ఇదానీం టిత్కితౌ యస్య ఉక్తౌ అస్మిన్ సూత్రే యస్య ఉక్తౌ ఇది సూత్రార్థ ఆగతః. యస్య నామ కిం స్వీకర్తవ్యం? అత్ర యస్య ఆగమినః ఉక్తౌ ఆగమః అస్య సంతి ఇతి ఆగమీ. యస్య ఆగమినః ఉక్తౌ తత్ టిత్ ఆద్యవయవః సన్ భవతి. కిత్ ఇత్యుక్తే అంతావయవః సన్ భవతి. ఇదానీం ధుట్ ఇది టిత్వా కిత్వా ఢుట్ ఇతి భవతి కిల. అత్ర ద్యసి ఢుట్ ఇతి పూర్వస్మిన్ సూత్రే టిత్వా ఢుట్ ఇతి టిత్వా కిత్వా టకారః ఇత్ అస్తి అంతే. టిత్వా కిత్వా ఢుట్ ఢుట్ టిత్ ఏవం టిత్ అస్తి ఢుట్ అతః టిత్ అస్తి చేత్ కిం కర్తవ్యం? ఆద్యవయవః సన్ आद्यव्यहासन भवति आ आद्यव्यवहासन भवति इत्युक्ते कथं भवति इति पश्यामः उदाहरणं पश्यामः इदानीम् अत्र सावधानतया पश्यन्तु षड् सन्तः इति पूर्वम् उदाहरणम् आसीत् षड् सन्तः इति जलां जशोऽन्ते इति जस्त्वमागतम् इदानीं डकारात् परस्य सकारः अस्ति एवं ढसि धुट् इति सूत्रस्य विषयः षड् सन्तः इति अभवत् दसि दुट् इति सूत्रस्य विषयः इदानीं धकारः आगन्तव्यं कुत्र आगन्तव्यं सकारस्य स्थाने तु न भवति यतोहि अत्र उक्तम् आगमः इति आगमः इत्युक्ते षष्टिस्थाने योग इत्येव न भवति सकारस्य अवयवषष्टित्वं स्वीक्रियते एवं सकारस्य अवयवत्वेन आगच्छति इदानीं प्रश्नः सकारस्य आद्यवयवः वा अन्तावयवः वा धकारात् परं सकारः करणीयः वा सकारात् परं दकारः करणीयः वा सकार अकारयोर्मध्ये दकारः योजनीयः वा इति प्रश्नः तदा उच्यते दुट् इति आगमः टित्वा कित्वा इति प्रथमम् अस्माभिः दृश्यते परिशील्यते तदा दुट् इति टित् अस्ति इति अस्माभिः ज्ञातं तकारः इत् अस्ति अत्र धू इत्यत्र उकारः अपि इत् अस्ति उपदेशे अजनुनासिक इत् इत्यनेन हलन्त्यम् इत्यनेन टकारस्य लोपः उकारस्यापि लोपः एवं ध इत्येव अवशिष्टम् ध इदानीम् आद्यवयवत्वेन यदा आगतः तदा षड् ध सन्तः इति अभवत् इदानीं धकारस्य किम् अभवत् खरिच इत्यनेन किं चर्त्वं भवति धकारस्य खरिच इत्यनेन चर्त्वं भवति चर्त्वं नाम प्रथमाक्षरं तकारः भवति एवं डकारस्यापि खरिच इति पुनः चर्त्वं भवति एवं षट् तृ सन्तः इति भवति दुड् अभावे इदानीं डसि दुट् इति सूत्रं वैकल्पिकम् अस्ति तत्र डसि दुट् इत्यत्र दुड् वा इति अस्ति अतः वैकल्पिकम् अस्ति अतः इदानीं किं भवति दुड् अभावे षट् सन्तः इति भवति अवगतं वा मीनाक्षी भगिनी षष्टिपरिणामः कस्य तत्तु सकारस्यैव षष्टिपरिणामः नाम किं सकारस्य अवयवस्य दुट् भवति इति भवति एवं यदि सि इति सकारे परे इति स्वीक्रियते चेत् इदानीं सप्तमी निर्देशः स्वीक्रियते चेत् षष्टि अर्थस्वीकरणसमये षष्टिपरिणामः भवति सकारस्य आद्यवयवः अवयवः भवति दुट् इति प्रथमं स्वीक्रियते तदा पुनः प्रश्नः आगच्छति आद्यवयः वा अन्तावयवः इति तदा आद्यवयः इति स्वीक्रियते प्रश्नस्य समाधानम् अभवत् वा अस्तु एवम् इदानीं किम् अभवत् षट्सन्तः इति उदाहरणद्वयं तत्र आद्यन्तौ टकितौ इत्यत्र पठन्तु टित्कितौ यस्य उक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः मया तत् क्रमात् इति न उक्तम् इदानीं क्रमात् इति अस्ति क्रमात् इत्युक्ते किम् अत्र यथासङ्ख्यम् अनुदेशसमानाम् इति परिभाषा स्वीकर्तव्या अत्र क्रमात् इत्युक्ते टित् इत्यस्य आद्यवयवः चित् इत्यस्य अन्तावयवः इति क्रमेण स्वीकर्तव्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयम् इति स्वीकर्तव्यम् इति भवति अत एव क्रमात् इति उक्तं तत्र षट् सन्तः इत्यत्र दसि प्रथमं तत् इदानीं यदा तत्र मौखिकपरीक्षाः भवन्ति कदाचित् व्याकरणे इदानीं पञ्चमे दिनाङ्के जनवरी पञ्चमे दिनाङ्के किम् अभवत् इत्युक्ते भानुवासरे तत्र शलाकापरीक्षा सम्पन्ना संस्कृत भारत्यां मनोरमा पुरस्कार इति विशेष पुरस्कार दत्तः तत्र तत्र किं भविष्यति इत्युक्ते शलाका नाम एक शलाका नाम इट्स अ स्टिक काष्ठं विद्यते काष्ठविशेषं परन्तु सुवर्णेन वा लोहेन वा निर्मीयते सुवर्ण तत् सुवर्णकाष्ठं स्वीकृत्य तत्र निर्णायकः किं करोति वारत्रयं तत्र पुस्तकमध्ये योजयति यत्र कुत्रापि आगच्छति तस्यैव प्रथमं प्रथमस्तरे कण्ठस्थीकरणं द्वितीयस्तरे व्याख्यानं तृतीयस्तरे प्रश्नानाम् उत्तरः एवं एतादृशपरीक्षा यदा भवति तदा एव तत्र मौखिकपरीक्षा मौखिकपरीक्षा एव पूर्वम् अस्माकं साम्प्रदायिकशिक्षणे मौखिकपरीक्षा एव आसीत् कदाचित् लिखितपरीक्षा नासीत् तादृशक्रमे किं भवति इत्युक्ते तदा तत्र निर्णायकः पृच्छति इदानीं षट् सन्तः इति उदाहरणं तस्य समर्थनं करोतु षट्सन्तः इत्यस्य उदाहरणस्य समर्थनं करोतु इति तदा अस्माभिः एवं वक्तव्यम् अस्मिन् स्लैड् मध्ये अस्ति एवमेव वक्तव्यं षट्सन्तः इत्यत्र दसिडुट् इति सूत्रे इत्यनेन सूत्रेण डकारात् उत्तरस्य सकारस्य विकल्पेन दुडागमः प्राप्तः दुड् इति आगमः टित् अस्ति टित्वात् आद्यन्तौ टकितौ इत्यनया परिभाषया दुड् इति आगमः सकारस्य आद्यवयवः सञ्जातः एवं दुट् इत्यस्य अनुबन्धलोपे कृते धृ एव अवशिष्यते अनुबन्धलोपे सति षड् धृ सन्तः इत्यवस्थायां खरिच इत्यनेन धकारस्य तकारः आदेशः जायते तदनन्तरं डकारस्यापि खरिच इत्यनेन टकारः आदेशः भूत्वा षट्सन्तः इति प्रयोगः जायते दुडभावे षट्सन्तः इत्येव यतोहि दसिदुट् इति सूत्रं वैकल्पिकं विद्यते दुडभावे खरिच इत्यनेन चत्वादेशो भूत्वा षट्सन्तः इत्येव प्रयोगः जायते एवं रीत्या अस्माभिः वक्तव्यम् मौखिकपरीक्षायां साम्प्रदायिकशिक्षणे कदाचित् गुरुकुलेषु व्याकरणगुरुकुलेषु अद्यापि लिखितपरीक्षा न भवति एवं रीत्या समर्थनीयं भवति तत्र तेनालि इत्यादि परीक्षाः सन्ति तत्र लिखितपरीक्षामपि कुर्वन्ति मौखिकपरीक्षामपि कुर्वन्ति एवं रीत्या अस्माभिः किञ्चित् अभ्यसनी शास्त्रीयभाषा इत्युक्ते एवमेव एतदेव उच्यते शास्त्रीयभाषा इत्युक्ते अस्माभिः एवं वक्तव्यम् इदानीं एतस्य अभ्यासः क्रियते चेत् अस्माकं मौखिकपरीक्षाविषये सम्यक् धैर्यम् आत्मविश्वासः भवति एतावत्पर्यन्तम् अवगतं वा सर्वैः अस्तु इदानीम् अग्रिम सूत्रं प्रति गच्छामः मो कुक् टुक् शरी इति अस्ति किं भो अत्र कुक् टुक् इति तत्र इङ्ग्लेण्ड्तः जनाः आगताः इति कुक् टुक् इति तत्र इङ्ग्लेण्ड् मध्ये कुक् इति एकः तत्र बौलर् अस्ति टुक् इति एकः अस्ति एवं कुक् टुक् इति तत्र एवं रीत्या न अत्र कुक् इत्युक्ते कुक् टुक् इत्युक्ते एतत् कित् कित् कितौ स्तः इदानीं पश्यामः कथम् इत्युक्ते अत्र विशेषतया ओ एवम् एतदपि विधिसूत्रं विद्यते अत्र सूत्रार्थं प्रति प्रथमं वयं न गच्छामः किं किम् अस्ति इति पश्यामः तदनन्तरं सूत्रार्थं प्रति आगच्छामः विधिसूत्रं विद्यते अत्र पदत्रयं विद्यते ङो कुक् टुक् शरि कुक् टुक् इति एकं पदम् ओ कुक् टुक् इति मया समास विभागः न कृतः इत्युक्ते अत्र कुक् टुक् इत्यत्र कुक् च टुक् च कुक् टुक् इति अत्र समाहारद्वन्द्वः समाहार द्वंद्वः भवति इदानीं नोः इत्यत्रापि नीच नीच नौ तयोः नुणोः इति भवति नीच नीच नौ तयोः नुणोः इति भवति इदानीं नूच नूच नौ तयोः नोः षष्टि द्विवचनमस्ति कुक् टुक् इत्यत्र प्रथमा एकवचनमस्ति अष्टमाध्यायस्य तृतीयपादस्य सूत्रम् शरी इत्यपि अस्ति शरी इति सप्तमी एकवचनम् अस्ति इदानीं हेमपरे वा इति सूत्रम् विद्यते तत्र वा इति अनुवृत्तिः भवति एवं सूत्रार्थः इदानीं कः वा इति स्वीकरणेन वैकल्पिकं भवति इति अत्र यत्किमपि उच्यते तद् वैकल्पिकं भवति इदानीं नकार नकारयोः कुक् टुक् आगमौ भवतः कदा शरीपरे शरीपरे नकार नकारयोः कुक् टुक् आगमौ स्तः इदानीम् अत्र एकः विषयः अस्माभिः सम्यक् ज्ञातव्यः संस्कृतव्याकरणे एकनिमिषम् आगमाः कति इति प्रश्नः तत्र विशेषरीत्या अनुस्वारागमः अन्यत् सर्वम् उच्यते प्रधानतया आगमाः केवलं त्रयः भवन्ति कृपया एतत् यदि लेखनपुस्तकं विद्यते कृपया लिखन्तु अहं किञ्चित् वदामि कृपया लिखन्तु व्याकरणशास्त्रे आगमाः त्रयः त्रयः आगमाः तित् कित् मित् त्रयः आगमाः तित् कित् मित् तित् 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 कित् मित् तित् तित् कित् मित् तित् कित् मित् अत्र मया किमर्थम् एतदुच्यते इत्युक्ते सर्वत्र आगमः न आगमस्य धर्मं तित्वा भवति कित्वा भवति मित्वा भवति स एव आगमस्य धर्मम् कित् इत्युक्ते ककारः इत् भवति तित् इत्युक्ते तकारः इत् भवति मित् इत्युक्ते मकारः इत् भवति कदाचित् पाणिनिः किं करोति एतत् कुक् टुक् इत्यत्र तेन क् ट् इत्यपि वक्तुं शक्यते स्म परन्तु सः किं कृतवान् कुक् इति उक्तवान् कुक् इत्यत्र ककारः अपि गच्छति उकारः अपि गच्छति टुक् इत्यत्र ककारः गच्छति उकारः गच्छति परन्तु सः प्रयोजनम् अनुद्दिश्य मन्दोऽपि न प्रवर्तते इति उक्तिः अस्ति प्रयोजनं विना कोऽपि किमपि कार्यं न करोति अस्मिन् संसारे अस्मिन् लोके एवं पाणिनिः अपि प्रयोजनं विना किमपि न करोति कुक् टुक् इत्यत्र यदि इत् सः इत् संज्ञां करोति चेत् ककारः इत् करोति चेत् तस्य मनसि अस्ति कदाचित् कुक् इति ककारः आगमः अपेक्षितः कुत्रचित् टुक् इत्यत्र ककार तत्रापि तकारः आगमः अपेक्षितः अतः आगमत्वेन निर्देशः करणीयः चेत् टित् कित्वा मित्वा करणीयः इदानीं कित् करणेन किं प्रयोजनं मित् करणेन किं प्रयोजनं कित् करणेन किं प्रयोजनम् इति अस्माभिः ज्ञातम् कित् करणेन किं प्रयोजनम् यदि कित् कित् भवति इदानीं यदि अस्माभिः आद्यन्तौ टकितौ इति सूत्रम् अधीतं तत्र यदि टित् भवति तस्य प्रयोजनं किम् अन्तावयवः आद्यवयवः भवति यदि कित् भवति अन्तावयवः भवति एतदेव इदानीम् अत्र किं क्रियते कित् क्रियते पाणिनिना अत्र कुक् इत्यनेन कित् क्रियते कित् क्रियते चेत् अत्र आगमः भवति तदपि आद्यन्तौ टकितौ ಕಿತ್ ಇತ್ಯುಕ್ತೆ ಅಂತಾವಯವ ಆದ್ಯವಯವ ಅಂತಾವಯವ ಏವಂ ಅಂತಾವಯವ ಭವತಿ ಏತದೇವ ಅಸ್ಯ ಪ್ರಯೋಜನ ಕಿತ್ ಕರಣಸ್ಯ ಪ್ರಯೋಜನ ಕುಕ್ ಟುಕ್ ಇತಿ ಇದ ಸಿ ಪ್ರಥಮಂ ಅಸ್ಮಾಭಿಃ ಸೂತ್ರಾರ್ಥಃ ಇದ ಇದಾನಿಂ ಮಯಾ ಏತತ್ ಸರ್ವಂ ಪ್ರಯೋಜನ ಕಿಂ ಪಾಣಿನಾ ಕಥಂ ಕ್ರಿಯತೆ ಏತತ್ ಸರ್ವಮಪಿ ಅಸ್ಮಾಭಿಃ ಇದಾನಿಂ ವಯಂ ಕಿಂಚಿತ್ ಜ್ಯೇಷ್ಠ ವಿದ್ಯಾರ್ಥಿನಃ ಸಂಜಾತಃ ಅಸ್ಮಾಭಿಃ ವ್ಯಾಕರಣಂ ಇದಾನಿಂ ಮಾಸತ್ರಯಾತ್ ವಾ ಮಾಸಚತುಷ್ಟಯಾತ್ ಅಧೀಯತೆ ಅತಃ ಅಸ್ಮಾಭಿಃ ಇದಾನಿಂ ವ್ಯಾಕರಣೇ ಏತಾದೃಶ ಪ್ರಯೋಜನ ವಿಷಯಮಪಿ ಅಸ್ಮಾಭಿಃ ಅಧ್ಯೇತವ್ಯಂ ಇತ್ಯುಕ್ತೆ ಯದ್ಯಪಿ ಲಘುಕೌಮುದ್ಯಾಂ ಮೂಲಪುಸ್ತಕೆ ಏತತ್ ಸರ್ವಂ ನ ಭವತಿ ತಥಾಪಿ ಏತತ್ ಜ್ಞಾತ್ವಾ ಏವ ಅಗ್ರೆ ಗಂತುಂ ಪ್ರಭವಾಮಃ ನೋ ಚೇತ್ ಕದಾಚಿತ್ ಮಧ್ಯೆ ಕ್ಲೇಶಾಃ ಅನುಭವಾಮಃ ಕ್ಲೇಶಾನ್ ಅನುಭವಾಮಃ ಅತಃ ಇದಾನೀಂ ನೋ ಕುಕ್ಕುಡ್ಶರಿ ಇತ್ಯತ್ರ ನಕಾರ ತತ್ರ ನಕಾರ ನಕಾರಯೋಃ ಕುಕ್ ಟುಕೌ ಆಗಮೌ ಸ್ತಃ ಇದಾನೀಂ ಆಗಮೌ ಕುಕ್ ಇತಿ ಆಗಮಃ ಕಥಂ ಇತ್ಯುಕ್ತೆ ಕಿತ್ ಅಸ್ತಿ ಅತಃ ಆಗಮಃ ಟುಕ್ ಇತಿ ಕಿತ್ ಅಸ್ತಿ ಅತಃ ಆಗಮಃ ಆಗಮಃ ಸಂಸ್ಕೃತ ಭಾಷಾಯಾಂ ತ್ರಯಃ ಏವ ಕಿತ್ ಟಿತ್ ಮಿತ್ ಇದಾನೀಂ ಶರಿಪರೆ ಆಗಮಃ ಭವತಿ ಇತಿ ಅತ್ರ ಸೂತ್ರಾರ್ಥಃ ಪುನಃ ಅತ್ರ ಆಗಚ್ಛಾಮಃ ನೋ ಇತಿ ಷಟ್ಟಿ ಗಕಾರ ನಕಾರಯೋಃ ಇದು ಸರ್ವಂ ಅವಗತಂ ಇದಾನೀಂ ಅತ್ರ ಯಥಾಸಂಖ್ಯತ್ವಾತ್ ನಕಾರಸ್ಯ ಕುಕ್ ಆಗಮಃ ಭವತಿ ನಕಾರಸ್ಯ ಟುಕ್ ಆಗಮ ಭವತಿ ನಕಾರ ಯಥಾಸಂಖ್ಯತ್ವಾತ್ ನಕಾರಸ್ಯ ಕುಕ್ ನಕಾರಸ್ಯ ಟುಕ್ ಇತಿ ಸ್ವೀಕರ್ತವ್ಯಂ ಅಸ್ಮಾಭಿಃ ಉಭೌ ಅಪಿ ಕಿತೌ ಏತದ್ ಉಭೌ ಅಪಿ ಕಿತೌ ಆದ್ಯಂತೌ ಟಕಿತೌ ಇತಿ ಪರಿಭಾಷೆಯ ನಕಾರ ನಕಾರಾಭ್ಯಾಂ ಪರತಃ ಏತೌ ಆಗಮೌ ಭವತಃ ಇದಾನೀಂ ಉದಾಹರಣಂ ಪಶ್ಯಾಮಃ ಪ್ರಾಂ ಷಟ್ಟಃ ಇತಿ ಉದಾಹರಣಮಸ್ತಿ ಪ್ರಾಂ ಷಟ್ಟಃ ಇತಿ ಉದಾಹರಣಮಸ್ತಿ ಪ್ರಾಂ ಷಟ್ಟಃ ಇತ್ಯತ್ರ ಇದಾನೀಂ ನಕಾರಃ ಅಸ್ತಿ ಷಕಾರಃ ಅಸ್ತಿ ಷಕಾರಃ ಷರ್ವರ್ಣಃ ಶರಿಪರೆ ಕಿಂ ಭವತಿ ಕುಕ್ ಆಗಮಃ ಭವತಿ ಕುಕ್ ಆಗಮಃ ಕಸ್ಯ ಭವತಿ ನಕಾರಸ್ಯ ಭವತಿ ನಕಾರಸ್ಯ ಕುಕ್ ಆಗಮಃ ಅಂತಾವಯವ ಸನ್ ಭವತಿ ಏವಂ ನಕಾರಾತ್ ಪರಂ ಭವತಿ ಏವಂ ಪ್ರಾಂ ಕು ಷಷ್ಟಃ ಇತಿ ಆಗತಃ ಏವಂ ಸುಗಣ್ ಷಷ್ಟಃ ಇತ್ಯತ್ರಾಪಿ ಸುಗಣ್ ತತ್ರ ನಕಾರಃ ಅಸ್ತಿ ಷರ್ವರ್ಣಃ ಅಸ್ತಿ ನಕಾರಸ್ಯ ಕಿಂ ಭವತಿ ನಕಾರಸ್ಯ ಟುಕ್ ಟುಕ್ ಆದೇಶಃ ನೋಹ ಟುಕ್ ನೋಹ ಕುಕ್ ಯದಿ ನಕಾರಃ ಟಾಟಡಾನ ಟವರ್ಗೀಯ ನಕಾರಃ ಅಸ್ತಿ ಚೇತ್ ಮೂರ್ಧನ್ಯ ನಕಾರಃ ಅಸ್ತಿ ಚೇತ್ ಮೂರ್ಧನ್ಯ ಸ್ಥಾನಿಕ ನಕಾರಃ ಅಸ್ತಿ ಚೇತ್ ತಸ್ಯ ಟಕಾರಃ ಏವಂ ಟಕಾರ ಆಗಮಃ ಭವತಿ ಸುಗಂಟ್ ಷಷ್ಟಃ ಇತಿ ಅಭವತ್ ಇದಾನೀಂ ಪ್ರಶ್ನಃ ಪ್ರಷ್ಟುಂ ಶಕ್ಯತೆ ಅತ್ರ ಕಿಮರ್ಥಂ ಜಸ್ವಂ ನ ಇತಿ ಇದಾನೀಂ ಅಸಿದ್ಧತ್ವಾತ್ ನೋ ಕುಕ್ಕುಡ್ಶರಿ ಇತಿ ತೃತೀಯ ಸುಗಂಟ್ ಷಷ್ಟಃ ಇತ್ಯತ್ರ ಟಕಾರಸ್ಯ ದತ್ವಂ ಕಕಾರಸ್ಯ ದತ್ವಂ ಇತ್ಯಾದಿಕಂ ಭವಿತುಮ್ ಅರ್ಹತಿ ಪರಂತು ಇದಾನೀಂ ಅಷ್ಟಮಾಧ್ಯಾಯಸ್ಯ ತೃತೀಯ ಪಾದಸ್ಯ ಅಷ್ಟಾವಿಂಶತಿತಮಂ ಸೂತ್ರಮೇತತ್ ಜಸ್ವಸಂಧಿ ತು ದ್ವಿತೀಯ ಪಾದ ಅಸ್ತಿ ದ್ವಿತೀಯ ಪಾದಸ್ಯ ಸೂತ್ರಂ ಅಹಮೇವ ಅಂತಿಮಂ ಸೂತ್ರಂ ಇತಿ ಜ್ಞಾತ್ವಾ ತತ್ ಚಿಂತಯತಿ ಅಗ್ರೆ ಕಿಮಪಿ ನಾಸ್ತಿ ಇತಿ ನೋ ಕುಕ್ಕುಟ್ ಶರಿ ಇತಿ ಕಾರ್ಯಂ ತತ್ರ ಸಂಪನ್ನಂ ಇತ್ಯೇವ ನ ಜಾನಾತಿ ಅತಃ ಅಸಿದ್ಧತ್ವಾ ತತ್ರ ಜಸ್ವಂ ನ ಭವತಿ ತರ್ಹಿ ಅಗ್ರೆ ಕಿಂ ಭವತಿ ಇತ್ಯುಕ್ತೆ ಅಗ್ರಿಮಸೂತ್ರಂ ವಿದ್ಯತೆ ಚಯೋಃ ಇದಾನೀಂ ಪ್ರಾಂ ಷಟ್ಟಃ ಇತ್ಯತ್ರ ಯದಾ ನೋ ಕುಕ್ಕುಟ್ ಶರಿ ಇತಿ ತದ್ ವೈಕಲ್ಪಿಕ ಪ್ರಯೋಗಃ ಅಸ್ತಿ ಪ್ರಾಂ ಷಷ್ಟಃ ಇತ್ಯೇವ ಭವತಿ ನೋ ಚೇತ್ ಪ್ರಾಂ ಕ್ ಷಷ್ಟಃ ಇತಿ ಭವತಿ ಸುಗಂಟ್ ಷಷ್ಟಃ ಇತಿ ಭವತಿ ಏವಂ ಅಗ್ರಿಮಸೂತ್ರಂ ಚಯೋಃ ಚಯೋದ್ವಿತೀಯಃ ಪೌಷ್ಕರ ಸಾದೇಹ ಇತಿ ವಾಚ್ಯಂ ಇತಿ ವಾರ್ತಿಕಂ ಏಕಂ ಆಗತಂ ತತ್ರ ಲಘುಕೌಮುದ್ಯಾಂ ವಿದ್ಯತೆ ಇದಾನೀಂ ಅತ್ರ ಶರ್ಪರೆ पौष्करसादेः अत्र कति पदानि सन्ति इति पश्यामः प्रथमं षट् पदानि सन्ति चयः चयः इत्युक्ते षष्टी एकवचनं चयः द्वितीया द्वितीयाः प्रथमा एकवचनं द्वितीयः द्वितीयौ द्वितीयाः शरि शरिपरे इत्युक्ते सप्तमी एकवचनं पौष्करसादेः पौष्करसादिः तत्र आचार्यः पौष्करसादेः पौष्करसः इति आचार्यः आचार्यस्य नाम पाणिनि पूर्वं पाणिनेः पूर्वं सः आसीत् इदानीं पाणिनिः पूर्वाचार्याणां स्मरणं करोति इत्युक्ते किम् अत्र किं तत्र अस्माभिः स्वीकर्तव्यं लोपशाकल्यस्य इत्यत्र अपि अस्माभिः उक्तम् अत्र अवाङ्स्फोटायनस्य इति शाकटायनस्य इत्यपि आगतम् एतत् सर्वं पूर्वाचार्याणां स्मरणं पाणिनिः किमर्थं करोति कोऽपि वा कापि वा वक्तुमर्हति वा पूर्वाचार्याणां स्मरणं पाणिनिः सूत्रे वा वार्तिके वा किमर्थं करोति इदं वार्तिकाचार्यः अत्र स्मरणं कृतवान् किमर्थम् महादेवन् महोदय समीचीनं पाणिनीयमतं न परन्तु विकल्पेन स्वीकर्तव्यं विकल्पः पाणिनिः बहुधा उच्यते पाणिनिः विकल्पस्य प्रयोगः यदा करोति तदा बहुधा उच्यते वा इति शब्देन कदाचित् वदति अन्यतरस्यामिति शब्देन कदाचित् वदति कदाचित् पूर्वाचार्याणां स्मरणं करोति एवं तस्य इदानीम् अत्र पौष्करसादिः इत्युक्ते पौष्करसादीनाम् आचार्याणां मते चयोः द्वितीया भवति मम मते तु न भवति इति पाणिनिः वदति पाणिनिः इत्युक्ते वार्तिकाचार्यः इदानीम् अत्र ते वार्तिकाचार्यः वदति इदानीं पौष्करसादिः इति वाच्यं वाच्यम् इत्युक्ते वक्तव्यं शरिपरे चैवर्णानां स्थाने वर्गद्वितीयाः आदेशाः भवन्ति इति अत्र विद्यते इदानीं पौष्करसादीनाम् आचार्याणां मते शरिपरतः चयः तत्तद्वर्गीयद्वितीयवर्णाः द्वितीयवर्णाः इति मया तत्र उट्टङ्कितं द्वितीयवर्णाः आदेशाः भवन्ति एते वर्णाः अन्येषाम् आचार्याणां मते न भवन्ति इति कृत्वा अत्र वैकल्पिकः कृतः इदानीम् अत्र उदाहरणस्य अनुवर्तनं कुर्मः प्राङ् षष्टः इति उदाहरणं प्राङ् षष्टः इत्यत्र प्राङ् ख् षष्टः इति ङोः कुक्कुट् शरि इति अनेन अभवत् इदानीं चयो द्वितीया शरि पौष्करसादेरिति वाच्यम् इति वार्तिकानुसारेण प्राङ् ख् षष्टः इति भवति एवमेव सुगण्ट् षष्टः इत्यत्र सुगण्ठ् षष्टः इति भवति इदानीम् एवम् अत्र रूपत्रयं सम्पन्नं प्राङ् षष्टः इत्यत्र प्राङ् षष्टः इति प्रथमं कुक्कुट्टुक् पक्षे तत्र कुक् टुक् आगमः एकमागतं यदि कुक्टुकोरभावपक्षे प्राङ् षष्टः इत्येव सुगण् षष्टः इत्येव भवति एवं रूपत्रयम् अत्र सम्पन्नम् इदानीं कथम् अस्य विवरणम् इति पश्यामः प्राङ्षष्टः इत्यत्र शरीपरतः नकारस्य कुक् आगमः नो कुक्कुट् शरि इति सूत्रेण सञ्जातः तदनन्तरम् अनुबन्धलोपे कृते प्राङ्क् षट्टः इति स्थितौ चयो द्वितीयाः शरिपौष्करसादेरिति वाच्यमित्यनेन ककारस्य स्थाने खकारः विकल्पेन भवति प्राङ्क् षष्टः इति अभवत् एवमेव प्राङ्षष्टः इति यदि पौष्करसादिः अपि विकल्पः अस्ति यदि पौष्करसादिः न भवति प्राङ् षट्टः इति भवति तदनन्तरं प्राङ् षष्टः इति भवति एवं सुगण्ट् षष्टः सुगंशक्तः इति उदाहरणानि भवन्ति इति अस्माभिः ज्ञातव्यम्।
एतावत् पर्यन्तं सर्वैः अवगतं वा?
महादेव महोदय,
अनुराधा भगिनी,
टुक् प्रश्नः मया न ज्ञातः भगिनी, कृपया।
तित् कित् न, उभौ अपि कित् एव।
तत्र ककारः अस्माकम् आगमः, आगमवर्णः ककारः।
यदि इदानीं पश्यन्तु,
अवगतं प्रश्नः, अवगतं।
प्राङ् षष्ठः इत्यत्र प्राङ् नकार गकारात् परस्य शर्वर्णस्य पर तस्य कुक् आगमः, कुक् भवति, कुक् आगमः भवति। कुक् इति स्वीकृतं किमर्थम् इत्युक्ते ककारः अत्र इत्वर्णः, अत्र अन्तिमककारः यः अस्ति तत्तु इत्वर्णः, तत्तु तस्य लोपः इत्यनेन लोपं प्राप्नोति अस्माकं, तस्य लोपः भवति। टुक् इत्यत्रापि ककारः इत्वर्णः, तस्यापि लोपः भवति। तदनन्तरं किं भवति? उकारः अस्ति। कुक् इत्यत्र उकार कु इति अस्ति, कुक् इत्यत्र ककारः गतः, अन्तिमककारः गतः, तदनन्तरम् उकारः अस्ति। उकारः अपि उपदेशे अजनुनासिक इत्यनेन तदपि गच्छति, तर्हि अवशिष्टः एकः ककारः एव। एवमेव टकार टुक् इत्यत्र अवशिष्टः टकारः। एवं ककारस्य आगमः अस्माभिः इष्टः। तत्र प्राङ् षष्टः इत्यत्र प्राङ् कृषष्टः इति एकवारं दर्शयामि। प्राङ् षष्टः इदानीं पश्यन्तु, प्राङ् कृषष्टः इति अस्माभिः आगन्तव्यम्। क इति कथम् आगतं? कुक् इत्यनेन वा? इदानीं ककारः इति किमर्थं कृतः? कित् नाम अन्त्यावयवः सन् भवति इति। एवं नकारस्य स्थाने किम् अन्तावयवः सन् अभवत्। यदि कित् न कृतः चेत्, यदि टित् कितः, इदानीं कुक् टुक् शरी इत्यस्मिन् स्थाने कुट् कुट् इति कुट्रदन् सल्वाले तमिळ् अनुमारि कुट् इति भवति चेत् तदा टित् भवति। टित् भवति चेत् प्रा इत्यत्र आकारात् परं ककारः तिष्ठति। अवगतं वा?
यदि अन्यः कोऽपि अपि किञ्चित् सम्यक् रीत्या वक्तुं शक्यते चेत् कृपया वदन्तु, यतो हि अनुराधा भगिन्याः संशयः तत्र येन निर्मूलं भविष्यति। इदानीं ककारः चित्वर्णः इति अवगतं वा? अनुराधा भगिनि, अवगतं वा? इतोपि नावगतं वा? सङ्कोचं कदापि न। किम्
कोऽपि वक्तुम् इच्छत् Both of them belong to this. For example, pukkarma, there is pukka, pukka, takara pukka. There is one more sutra, ane mukka. There may be one muk is there. Then there is one yak, that bhavati bhuyate. तत्र पठति पठ्यते भावे इन भावे प्रयोग यू हैव पठ्यते नो इन दैट यकार इज देयर नो दैट यकार इज कॉल्ड यक यक इज इट इज एन आल्सो एन आगम सो देयर आर एज हु आंसर्ड हु स्पोक नाउ जस्ट नाउ सदगोपन सर हां सदगोपन सर जस्ट नाउ टोल्ड There are many agamas. There are many agamas, and tit, kit, and mit are the broad categories under which all the agamas fall into picture. Any agama you take, it will fall under these. It will either be a kit, it will either be a mit, or it will be either be a tit. The prayojana for kit is antavayava. The prayojana for tit is. Adhyaveva. The prayojana for mit is midachontyat paraha. It will come after the next antyat paraha, after the last letter. That we will see later. Or, so these are the prayojanas for the agamas. Why? So if Panini has to tell that yadi Panini hi tatra kaschit varnaha agamatvena स्वीकरणीयं भवति चेत् सः किं करोति कित्वेन निर्देशं करोति तित्वेन निर्देशं करोति मित्वेन निर्देशं करोति कदा कित्वेन करोति यदि तस्य अन्तावयवः इष्यते तदा कित्वेन यदि कदा तित्वेन निर्देशं करोति यदि आद्यवयवः इष्टः तदा तित्वेन यथा दसिदुट् इत्यत्र कदा मित्वेन करोति अन्त्यात् परः यदि इष्यते चेत् मित्वेन करोति इदानीम् अत्र कुक् इति आगमः इदानीं ककारः आगन्तव्यः इति पोष्करसादि आचार्याणां मतं तदा कथम् आगन्तव्यम् इत्युक्ते इदानीं प्राङ्षट्टः इत्यत्र यदि सः कुक् इति कुक् कित्वं न करोति तदा टित्वं करोति चेत् नकारः पूर्वमागच्छति आगच्छति स्म प्राक् षट्टः इति भवति स्म तदा अनिष्टरूपं भवति स्म अतः सः एवं कृतवान् अस्तु अग्रिमसूत्रं प्रति गच्छामः पुनः यदि सन्देहः अस्ति चेत् अनुराधा भगिनी मम दूरवाणी अस्ति अवश्यम् अहं यथाशक्ति तमिळ् भाषया वक्तुं प्रयत्नं करोमि यदि शक्यते चेत्। नश्च इति सूत्रं विद्यते अत्र नः च इति च इति अव्ययं नः इति पञ्चमी विभक्ति एकवचनं भवति। इदानीम् अत्र अस्य सूत्रस्य अर्थः नान्तात् परस्य सस्य दुड् वा, अत्रापि दुड् इत्युक्ते दुड् भवति, दुट् इत्येव स्वीक्रियते। डसि दुट् इति सूत्रात् एव अत्र दुट् इति स्वीक्रियते। हेमपरे वा इति सूत्रात् वा इति अनुवृत्तिः भवति। किम् अस्य तात्पर्यम् इत्युक्ते नकारात् उत्तरस्य सकारस्य विकल्पेन दुडागमः भवति। अत्र दुट् इति टित् भवति, अतः आद्यवयवः सन् भवति। उदाहरणं पश्यामः, सुलभमस्ति। सन् सः इति उदाहरणमस्ति। सन् सः इत्यत्र नकारः अस्ति, ततः परं सकारः अस्ति। नश्च इति सूत्रेण, नश्च सूत्रस्य विषयः भवति अयम् उदाहरणं, सन् इदम् उदाहरणं। सन् इदानीं धकारः कस्य आगमत्वेन स्वीक्रियते, सकारस्य आगमत्वेन स्वीक्रियते। एवं टित् भवति, अतः आद्यवयत्वेन भवति। एवं धृस् इति भवति। इदानीं खरिच इत्यनेन धकारस्य तकारः संसः इति भवति। दुड् यदि न भवति दुडभावे, संसः इत्येव रूपसिद्धिः भवति। तदेव दत्तं मूले, नान्तात् परस्य सस्य दुड् वा संसः, संसः इति अत्र उदाहरणम्। इदानीं एतदेव इदानीम् उदाहरणान्तरं नकारनकारयोः एवमेव अवगतं। प्रश्न इदानीं प्रश्नस्य अनुवादं पुनः करोमि। सर्वे समीचीनं प्रश्नम्, अतः प्रश्नस्य अनुवादं कृत्वा उत्तरं वदामि। इदानीं प्रिया भगिनी पृष्टवती किल, कस्याः प्रश्नः, प्रिया भगिन्याः वा? अत्र प्रिया भगिन्याः प्रश्नः एवम् अस्ति, डसि दुट् इत्यत्र सकारः पाणिनिः किं कृतवान्, सकारः सप्तमी निर्देशं कृतवान्, तत्रैव सकारस्य षष्ठी निर्देशमेव साक्षात् कर्तुं शक्यते स्म, दः सः दुट् इति कर्तुं शक्यते स्म। एतदेव प्रश्नः किल प्रिया भगिनी? अग्रिमसूत्रे षष्ठी अस्ति, अत्र तत्र किमर्थं सकारः अस्ति इति प्रश्नः। इदानीम् अत्र तत्र व्याख्यानकर्तारः एवं वदन्ति, अत्र यदि सः सि इति स्वीक्रियते, सि इति सप्तमी विभक्तिः स्वीक्रियते, तदा सकारः इकारः अस्ति। सकारस्य मात्रा कति मात्राणि सन्ति इत्युक्ते, सकारस्य सि इत्यस्य वन् अण्ड् हाफ् मात्रा भवति, वन् अण्ड् हाफ् भवति सकारस्य अर्धमात्रं
ಇಕಾರಸ್ಯ ಹ್ರಸ್ವಸ್ವರ ಅಸ್ತಿ ಒನ್ ಅಂಡ್ ಹಾಫ್ ಮಾತ್ರ ಭವತಿ. ಇದಾನೀಂ ಯದಿ ಸಹ ಸಹ ಇತಿ ವದತಿ ವದತಿ ಸ್ಮ ತದಾ ಮಾತ್ರ ದ್ವಯಂ ಆಪದಿತಂ. ಮಾತ್ರ ದ್ವಯಂನ ಯದಿ ಮಾತ್ರ ದ್ವಯಂ ಸ ಇತ್ಯಸ್ಯ ಅರ್ಧ ಮಾತ್ರ ಅಕಾರಸ್ಯ ಏಕ ಮಾತ್ರ ವಿಸರ್ಗಸ್ಯ ಅರ್ಧ ಮಾತ್ರ ಏವಂ ಕಿಂ ಕಥಂ ಆಗತಂ ಒನ್ ಅಂಡ್ ಹಾಫ್ ಮಾತ್ರಾಸ್ ವೆಸಸ್ ಟೂ ಮಾತ್ರಾಸ್. ಸೊ ಪಾಣಿ ವಾಂಟೆಡ್ ಲಾಘವ. ಲಾಘವ ಮೀನ್ಸ್ ದೇರ್ ಇಸ್ ಒನ್ ಪರಿಭಾಷ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ಕೃಪಯಾ ಜಾನಂತಿ ಕೃಪಯಾ ಲಿಖಂತು ಎತತ್. ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ಪುತ್ರೋತ್ಸವಂ ಮನ್ಯಂತೆ ವೈಯಾಕರಣಾಃ. ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ಪುತ್ರೋತ್ಸವಂ ಮನ್ಯಂತೆ ವೈಯಾಕರಣಾಃ ಇತಿ ಪರಿಭಾಷಾ ವಿದ್ಯತೆ. ಕುತ್ರ ವಿದ್ಯತೆ ಇತ್ಯುಕ್ತೆ ಪರಿಭಾಷೆಂದು ಶೇಖರಃ ಇತಿ ಗ್ರಂಥಃ ಅಸ್ತಿ. ತತ್ರ ಪರಿಭಾಷಾ ವಿದ್ಯತೆ ತತ್ರ ವಾಚನಿಕ ಪರಿಭಾಷಾ ಅಸ್ತಿ ಕದಾಚಿತ್. ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ಪುತ್ರೋತ್ಸವಂ ಮನ್ಯಂತೆ ವೈಯಾಕರಣಾಃ. ಪಾಣಿನಿ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವಂ ಕೃತವಾನ್. ಪಾಣಿನಿ ವಾಂಟೆಡ್ ಟು ಫಾರ್ ಲಾಘವ ವಾಟ್ ಇಸ್ ದ ಇಂಗ್ಲಿಷ್ ವರ್ಡ್ ಪ್ರಿಯಾ ಭಗಿನಿ? ಲಾ ಬ್ರೆವಿಟಿ. ಕರೆಕ್ಟ್, ಎಕ್ಸಾಕ್ಟ್ಲಿ. ಸೊ ದಿ ವೈಯಾಕರಣಸ್ ದೇ ಆಲ್ವೇಸ್ ಆಸ್ಪೈರ್ ಫಾರ್ ಬ್ರೆವಿಟಿ. ಸೊ ಹಿಯರ್ ಪಾಣಿನಿ ಬೈ ಜಸ್ಟ್ ಪುಟಿಂಗ್ ಇಟ್ ಅಸ್ ಸಿ ಹಿ ಗೆಟ್ಸ್ ಬ್ರೆವಿಟಿ ಟು ದ ಎಕ್ಸ್ಟೆಂಟ್ ಆಫ್ ಹಾಫ್ ಮಾತ್ರ. ದೆನ್ ದ ಕ್ವೆಶನ್ ಅಗ್ರೈಸ್ ಅಸ್ ಇಟ್ಸ್ ಓನ್ಲಿ ಎ ಕ್ವೆಶನ್ ಆಫ್ ಹಾಫ್ ಮಾತ್ರ. ವೈ ಶುಡ್ ವಿ ನಾಟ್ ಕೀಪ್ ದ ಸಿ ಆಸ್ ಸಕಾರ ಓನ್ಲಿ? ದೆನ್ ದೇರ್ ಇಸ್ ಅ ಪರಿಭಾಷಾ ವಿಚ್ ಸೇಸ್ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ಪುತ್ರೋತ್ಸವಂ ಮನ್ಯಂತೆ ವೈಯಾಕರಣಾಃ. ದಿ ವೈಯಾಕರಣ ಆಲ್ ದಿ ನಾರ್ಮಲಿ ದಿ ಗ್ರಮೇರಿಯನ್ಸ್ ಆರ್ ದ ಶಾಸ್ತ್ರಕಾರಾಃ ತತ್ರ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವಂ ತೇಷಾಂ ತತ್ರ ಬುದ್ಧಿ ಯುಕ್ತಿಯ ಬುದ್ಧಿಯಾ ಅಥವಾ ಯುಕ್ತಿಯ ಯದಿ ತೇ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವಂ ಸಂಪಾದಯಂತಿ ಯತ್ನೇನ ತದಾ ತೇ ಪುತ್ರೋತ್ಸವ ಯದಾ ಭವತಿ ಅಥವಾ ಯದಾ ಭವತಿ ತದಾ ಕಥಂ ತೇ ಸಂತೋಷ ಅನುಭವಂತಿ ತಾದೃಶ ಸಂತೋಷವಂ ಸಂತೋಷಂ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವೇನ ತೇ ಅನುಭವಂತಿ ಇತಿ ಪರಿಭಾಷಾ ಅಸ್ತಿ. ಅತ್ರ ಏವಮೇವ ವ್ಯಾಖ್ಯಾತಂ ಶಕ್ಯತೆ ಇತಿ ವಕ್ತುಂ ಶಕ್ಯತೆ. ಅರ್ಧ ಮಾತ್ರ ಏವಂ ಸಿ ಇತಿ ಸ್ವೀಕರಣೇನ ಪಾಣಿನಿಃ ಅತ್ರ ಲಾಘವಂ ಸಂಪಾದಿತವಾನ್. ಅರ್ಧ ಲಾಘವಂ ನಾಮ ಅರ್ಧ ಮಾತ್ರ ಲಾಘವಮೇವ ಸಂಪಾದಿತವಾನ್. ತೇನ ಕಿಂ ಜಾತಂ ಇತ್ಯುಕ್ತೆ ತತ್ರ ವೈಯಾಕರಣಸ್ಯ ಸಂತೋಷಃ ಭವತಿ. ಪ್ರಶ್ನಸ್ಯ ಸಮಾಧಾನಂ ಅಭವತ್ ವಾ ಪ್ರಿಯಾ ಭಗಿನಿ? ಇದಾನಿಂ ಸರ್ವೇ ಪ್ರಶ್ನಂ ಅವಗತವಂತಃ ವಾ ಉತ್ತರಮಪಿ ಅವಗತವಂತಃ ವಾ? ಅಸ್ತು. ಅಸ್ತು, ಸಮಯಂ ಕಿಂ ಅಗ್ರಿಮಕಕ್ಷಾಯಾಂ ಪಶ್ಯಾಮಃ. ಅಹಂ ಚಿಂತಿತವಾನ್ ಅದ್ಯ ಕಿಮಪಿ ಶೀತುಕ್ ಇತಿ ಅಪಿ ಸಮಾಪಯಿತುಂ ಶಕ್ಯತೆ. ಅಸ್ತು, ಅಗ್ರಿಮಕಕ್ಷಾಯಾಂ ಶೀತುಕ್ ಇತಿ ಅಗ್ರಿಮಸೂತ್ರಂ ಅಸ್ತಿ. ತತ್ ಬಹು ಇತೋಪಿ ಚರ್ಚಿತುಂ ಶಕ್ಯತೆ ಅಸ್ಮಾಭಿ. ಅತ್ರೈವ ಸಮಾಪಯಾಮಃ. ಕಿಮಪಿ ಸಂಶಯಃ ಅಸ್ತಿ ಚೇತ್ ಕೃಪಯಾ ಪೃಚ್ಛಂತು. ಮಧ್ಯೆ ಮಧ್ಯೆ ಪೃಚ್ಛಂತು. ತತ್ ಗೋಟಿ ವೆಬಿನಾರ್ ಟೂಲ್ ಅಸ್ತಿ. ಅತ್ರ ಪ್ರಶ್ನಾಃ ಪ್ರಷ್ಟುಂ ಅರ್ಹಂತಿ ಭವಂತಃ ಭವತ್ಯಶ್ಚ. ಕೃಪಯಾ ಮಧ್ಯೆ ಪ್ರಶ್ನಂ ಪೃಚ್ಛಂತು. ಯದಿ ದ್ವಿವಾರಂ ತ್ರಿವಾರಂ ವಾ ಸಂದೇಹ ಭವತಿ ತಥಾಪಿ ಪೃಚ್ಛಂತು ಇತಿ ಪ್ರಾರ್ಥಯೆ. ಸರ್ವೇಷಾಂ ಶುಭರಾತ್ರಿ. ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘುಸಿದ್ಧಾಂತಕೌಮುದೀಂ ಯೇನಾಕ್ಷರಸಮಾಂ ನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ಯೇನ ಧೌತಾಗ್ರಃ ಪುಂಸಾಂ ವಿಮಲೈ ಶಬ್ದವಾರಿಭಿಃ ತಮಶ್ಚಾಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ಸರ್ವೇಷಾಂ ಶುಭರಾತ್ರಿ. ಧನ್ಯವಾದಾಃ.